एस रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दाहाल सर्वकारेण साफक्रीडोत्कृष्ट कौशल प्रतियोगिताया उपविजयिन नेपाली पादकन्दुक समूहस्य क्रीडकेभ्य प्रतिव्यक्ति पञ्चलक्षाणाम् प्रशिक्षकाय च लक्षत्रयस्य रूप्यकाणाम् प्रोत्साहन वित्तम् प्रदातुम् निर्णीतमस्ति। संचार सूचना प्रविधि मन्त्रालय ह्य आयोजिते पत्रकार सम्मेलने संचार सूचना प्रविधि मन्त्री सर्वकारस्य प्रवक्ता च ज्ञानेन्द्र बहादुर कार्की क्रीडकेभ्य प्रशिक्षकाय च प्रोत्साहन वित्तमेतत् प्रदातुम् निर्णीतमस्तीति अज्ञापयत्। मन्त्रिपरिषदः उपवेशेन स्कटल्याण्ड देशस्य ग्लास्को स्थाने आयोक्ष्यमाणे जलवायु परिवर्तन सम्बद्धे वर्ल्ड लीडर्स समिट नामधेये विश्वनेतृणां शिखर सम्मेलने सहभागितायै प्रधानमन्त्रिणः शेरवाल देवाविधस्य नेतृत्वे प्रतिनिधिमण्डलम् संघटितमिति प्रवक्ता कार्की ज्ञापितवान्। उपवेशेन मोहम्मद जयन्त्याः अवसरे अद्य मुस्लिम समुदायाय सार्वजनिकावकाशम् दातुम् निर्णीतम् वर्तते। मन्त्रिपरिषदः उपवेशेन एतद् विक्रम वर्षीयाम् आर्थिक कार्यविधि वित्तीयोत्तरदायित्व प्रथम संशोधन नियमावलीम् स्वीकर्तुम् अबुधाबी वार्तायाः षष्ठे मन्त्रिस्तरीय परामर्शोपवेशे सहभागिताये श्रमवृत्ति सामाजिक सुरक्षा मन्त्रिणे स्वीकृतिम् प्रदातुम् विभिन्नेषु मन्त्रालयेषु अस्थायी पदसंख्यायाः सर्जनाय स्वीकृतिम् दातुम् च निर्णीतमस्ति। एवमेव उपवेशेन लोकसेवायोगस्य पदोन्नयन समितेश्च परामर्शेन राजपत्रांकित प्रथम श्रेण्याः विभिन्नेषु पदेषु नियुक्तिम् कर्तुम् च निर्णीतमस्ति। नेकपा माओवादी केन्द्रस्य स्थायी समितेः उपवेशे दलस्य आगामिनः सम्मेलनस्य विषय विमृष्टमस्ति। पेरिस डाँडावर्तिनी दलस्य केन्द्रीय कार्यालय ह्य उपविष्टे स्थायी समितेः उपवेशे दलस्य आगामि सम्मेलनम् केन्द्रे निधाय प्रादेशिक स्थानीय सम्मेलनानाम् दलस्य सदस्यतायाः नवीकरणस्य विभागानाम् संघटनस्य च विषयेषु विमृष्टमिति माओवादी केन्द्रस्य प्रवक्ता कृष्णबहादुर महरा ज्ञापितवान्। नेकपा माओवादी केन्द्रस्य स्थायी समितेरुपवेशः अद्य प्रातः अष्टवादने पुनर्वसति। गृहमन्त्री बालकृष्ण खाँड कथयति संविधानस्य रक्षा जनताया जीवनस्य सुरक्षा च राज्यस्य प्रथम दायित्वम् वर्तते। नेपाली कांग्रेस दलस्य रूपन्देही शाखया इह भैरवा स्थाने आयोजिते कार्यक्रमे गृहमन्त्री खाँड अगदत् समेषाम् दलानाम् एकतया सहकारेण च देशस्य विकासः सम्भवति। मन्त्री खाँड नेपाली कांग्रेस दलस्य स्कन्दे दायित्वम् समाह्वयश्च स्तः इत्यतः तत्पूरयितुम् दलेन अतिरिक्तम् उत्तरदायिना गभीरेण च भाव्यमिति आवश्यकताम् न्यस्तिनोत्। विजया दशमी पर्वणः अन्तिम दिने अद्य कोजाग्रत पूर्णिमा वर्तते। अवसरेऽस्मिन् देशव्यापित्वेन धनधान्य सम्पन्नतानाम् अधिष्ठात्र्याः महालक्ष्म्याः सविशेषम् पूजन स्तव नाराधनानि विधीयन्ते। अस्यामेव तिथौ वैकुण्ठ धाम्नः क जागरितः अस्तीति ज्ञातुम् धरायाम् कदाचित् आगता लक्ष्मी कस्मिंश्चित् कृषक दम्पत्योः गृहे प्रज्वलितम् दीपम् विलोक्य तस्थौ कृषक दम्पती च तया धनिनौ कारितौ इति पौराणिक मान्यतामाश्रित्य जनैः ततः प्रवृत्तिः अस्मिन् पूर्णिमा पर्वणि महालक्ष्मी रात्रि जागरण पूर्वकम् सविशेषम् पूजिता आराधिता चेति जनविश्वास प्रतिष्ठितो वर्तते। क जागरिता इति व्युत्पत्तिश्च अमुमेव अर्थम् सूचयति। विजयादशम्याः प्रारब्धम् टीका एवं कुराणाम् परिधापन कार्यम् अस्मात् दिवसात् पूर्णतामेति। अस्मिन् कृष्ण प्रतिपदि सविधि स्थापितानाम् घट एवं कुराणाम् विसर्जनमपि अस्यामेव तिथौ सम्पाद्यते। कोजाग्रत पूर्णिमा पर्व नेपालीनाम् कृते आगामि दीपावली पर्वण सूचकम् च स्वीक्रियते। स्वस्तन दिवसात् मासम् यावत् पवित्र जलाशयेषु कुण्डादिषु च विधेयम् स्नानम् महापुण्य प्रदम् मन्यते। एतत् कार्तिक स्नान नाम्ना व्यवह्रियते। अस्याः पूर्णिमायाः एव आकाशदीप प्रज्वालन परम्परा प्रारभ्यते। कर्मेदम् ग्रह नक्षत्राणाम् सम्मानाय सम्पदा अधिष्ठात्र्याः महालक्ष्म्याः प्रसन्नतायै च अनुष्ठीयते। आराष्टम् ह्य एकनवत्यधिक पञ्चशते जनेषु कोरोना संक्रमणम् पुष्टीभूतम् वर्तते। इदानीमपि काष्ठमण्डप ललितपुर भक्तपुर कास्की जनपदेषु पञ्चशतादपि अधिकाः सक्रिय संक्रान्ताः जनाः सन्तीति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितम् वर्तते। ह्य आराष्टम् सप्तत्रिंशदधिक नवशतम् जना कोरोना संक्रमणात् मुक्ताः। कोरोना संक्रमणेन ह्य आराष्टम् अतिरिक्ताः नवजनाः मृता इति स्वास्थ्य जनसंख्या मन्त्रालयेन सूचितम् अस्ति। सर्वकारेण कोरोना प्रतिरोधी टीकाकरणं लक्षित जनसंख्या तोपि अधिक जनेषु आहितमिति ज्ञापितं वर्तते। आश्विन मासान्तं यावत् लक्षित जनसंख्यायाः प्रतिशतं त्रयस्त्रिंशति जनेषु टीकाकरणस्य लक्ष्यं निर्धारितं, सदपि ततोधिक जनसंख्यायां टीकाकरणम् आहितमिति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। विभिन्न वर्गाणाम् अष्टादश वर्षतः अधिक वयस्कानां कोटिद्वयं सप्तदश लक्षाणि षट् पञ्चाशत् सहस्राणि त्रिषष्ट्यधिक सप्तशतं चेति लक्षित जनानां मध्ये प्रतिशतं दशमलव द्युत्तर द्वा चत्वारिंशते जनेभ्य प्रथम मात्रायाः दशमलव पञ्चोत्तर त्रयस्त्रिंशते जनेभ्य पूर्ण मात्रायाश्च टीकाकरणम् आहितमिति मन्त्रालयस्य परिवार कल्याण महाशाखाया निर्देशका डाक्टर विवेक कुमार लालः अज्ञापयत्। मन्त्रालयेन अस्य वर्षस्य आश्विन मासान्तं यावत् प्रतिशतं त्रयस्त्रिंशति, पौष मासान्तं यावत् प्रतिशतं द्वितृतीयांशेषु, चैत्र मासान्तं यावत् लक्षित सर्वेषु नेपालीषु च टीकाकरणाधानस्य योजना निर्धारिता वर्तते। श्रमवृत्ति सामाजिक सुरक्षा मन्त्री कृष्ण कुमार श्रेष्ठ सम्बद्ध निकायानां कर्मचारिण सेवां प्रभावकारिणीं विधातुं निर्दिशति। काष्ठमण्डपस्य बबरमहलस्थितयो सामाजिक सुरक्षा कोषस्य वैदेशिक वृत्त्युपार्जन समितेश्च निरीक्षणमनु ह्यो मन्त्री श्रेष्ठ सेवा प्रवाहं सहजं सरलं च विधातुं कर्मचारिणो निरदिशत्। मन्त्री श्रेष्ठ ह्य एव संयुक्त अरब इमिरेट्स देशस्य राजदूतेन साइद हमदार मोहम्मद अल नक्की इत्यनेन सऊदी अरेबिया देशस्य राजदूतेन मुसेन बनी मुले सुलेमान इत्यभिधेयेन च सम्पन्ने मेलने अनयो देशयो निराश्रयत्वं प्राप्तवतां मृतानां कारावासे स्थितानां च नेपाली श्रमिकाणाम् उद्धाराय आवश्यकं सहयोक्तुम् अन्वरुणत्। पुरातत्व विभागेन विभिन्नेषु समयेषु नेपालात् बहिर्निताः मूर्तिः थाङ्का प्रवृत्तिः पुरातात्विक महत्वस्य सम्पदश्च प्रत्यावर्तितुं प्रयत्नं प्रारब्धं वर्तते। विभिन्नेषु देशेषु चौरकार्येण नीताः नेपालस्य स्वामित्व प्रमाणीभूताः सम्पदः प्रत्यावर्तितुं नेपाली राजदूतावासैः अन्तर्राष्ट्रिय प्रहरी संगठनेन सम्बद्ध देशानां आलयैश्च सह मिलित्वा सूचना संकलितेति विभागस्य महानिर्देशका दामोदर गौतमः ज्ञापयत्। अमेरिका बेलायत फ्रान्स प्रवृत्तिषु देशेषु स्थिताः एवं विधाः सम्पदः प्रत्यावर्तितुं प्रयास विधीयमानोस्तीति महानिर्देशकः गौतमः ज्ञापितवान्। नुवाकोट जनपदात् काष्ठमण्डपाय प्रस्थीयमानं बसयानं ह्य किस्पाङ्ग्रामपालिकायाः पञ्चमवडा क्षेत्रस्थिते मनकामनास्थाने दुर्घटितं सत् चालकेन सहितानां त्रिपञ्चाशतः आहतानां मध्ये एको जनः मृतो वर्तते। दुर्घटनायां गभीरेण आहता उपचाराय हेलिकप्टर यानेन काष्ठमण्डपमानीतः किस्पाङ्ग्रामपालिकायाः प्रथमवडा क्षेत्रस्य अष्टात्रिंशद् वर्षीयो रमेश तामाङ गाण्डी चिकित्सालये उपचारस्य क्रमे मृत इति प्रहरी ज्ञापयति। गभीरावस्थायाः अतिरिक्तानां नवानां जनानां काष्ठमण्डपस्य विभिन्नेषु चिकित्सालयेषु उपचारः विधीयमानोस्तीति नुवाकोट जनपद प्रहरी कार्यालयस्य प्रवक्ता प्रहरी नायब उपरीक्षक हरिबहादुर वली अज्ञापयत्। दुर्घटनायां आहतानां मध्ये अवशिष्टानां अष्टानां जनानां नुवाकोट स्थिते त्रिशूली चिकित्सालय उपचारः जायमानोऽस्ति एवं अन्ये चतुस्त्रिंशत् जनाः उपचारस्य पश्चात् ह्य एव गृहं प्रत्यावृताः इति चिकित्सालयस्य प्रमुख सुपर्यवेक्षकः डा दीपेन्द्र पाण्डे अज्ञापयत् इति समाचारः।